हरिः ओम् श्रीगुरुभ्यो नमः। अथ श्रीमद्भागवते तृतीयस्कन्धे अष्टाविंशोऽध्यायः। श्रीभगवानुवाच, प्रकृतिस्थोऽपि पुरुषो न जते प्रकृतेर्गुणैः अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्। स एष यशि प्रकृतेर्गुणेष्वभिविषज्यते, अहङ्कारविमूढात्मा कर्तास्मीत्यभिमन्यते। तेन संसारपदवीं मासाभ्येत्यनिवृत्तः, प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु। अर्थे ह्य विद्यमानेऽपि संस्कृतिर्न निवर्तते, ज्ञायतो विषयानस्य स्वप्ने अनर्था आगमो यथा। प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसं, वैतथ्यं व्यभिचारं च नासौ ध्यायेद्यतो भयम्। आत एव शनैश्चित्तं प्रसक्तमसतां पथि, भक्तियोगेन तीव्रेण विरक्त्यात्मवशं नयेत्। नियमाविभिर्योगपथैरभ्यसंश्रद्धयान्वितः, मयि भावेन सत्येन मत्कथाश्रवणेन च, सर्वभूतसमत्वेन निर्वैरेण प्रसङ्गतः, ब्रह्मचर्येण मौनेन स्वधर्मेण महीयसा, यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः, विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्, सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम्। ज्ञानेन दुष्टतत्त्वेन प्रकृते पुरुषस्य च, निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः, उपलभ्यात्मनात्मानं चक्षुषेवर् कमेकदृक्, मुक्तलिङ्गः सदाभासम् असति प्रतिपद्यते। सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम्। यदा जलस्य आभासः स्थलस्थेनाथ दृश्यते, स्वाभासेन यथा सूर्यो जलस्थेन दिवि स्थितः, एवं तिवृदहङ्कारो भूतेन्द्रियमनोगुणैः स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यद्वक्। भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया, दीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः, मन्यमानस्तदात्मानम् अनष्ठो नष्टवन्मृषा। नष्टेऽहङ्कारेण दुष्ट नष्टवित्त इवातुरः, एवं प्रत्यवं ऋष्या सावात्मानं प्रतिपद्यते। सहङ्कारस्य द्रव्यस्य योगस्थानमनुग्रहः। देवहूतिर्वाच, पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित्, अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयो प्रभो। यथा गन्धस्य भूमिश्च न भावो व्यतिरेकतः, अपाम्रसस्य च यदा तथा बुद्धे परस्य च, अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः। गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथं, सकृत् तत्त्वावमश्येन निवृत्तं भयमुद्बणम्, अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते। श्रीभगवानुवाच, अनिमित्तप्रवृत्तेन स्वधर्मेणामलात्मना, तीव्रया मयि भक्त्या च श्रुतिसंहृतया चिरम्, दुष्टतत्त्वेन ज्ञानेन वैरागेण बलीयसा, तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना, प्रकृते पुरुषस्यैवं दह्यमानाः त्वहर्निशम् तिरोभावित्री शनैकैरग्नेयोनिवारणिः उक्तभोगा परित्यक्ता दुष्टदोषात् नित्यशः नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च यथा यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थः कुप् स एव प्रतिबुद्धस्य न वै मोहाय कल्पते एवं विद्वत्तस्य प्रकृतिर्मयि मानसं युञ्जतो नापकुरुते आत्मा रामस्य कर्षिचित् यदैव मध्यात्मरतकालेन बहुजन्मना सर्वत्र जातवैराग्या आब्रह्मभवनात् मुनिः मद्भक्तप्रतिबुद्धार्थो मत्प्रसादेन बुभूयसा निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयं प्राप्नोतीह्याञ्जसा धीरः स्वदुषा छिन्नसंशयः यद्गत्वा न निवर्तेत योगी लिङ्गनिर्गमे यदा न योगोपतिता सुचेतो माया सुसिद्धस्य विशज्यते च अनन्यहेतुश्वतमे गतिः स्याद् अत्यान्तिकी यत्र न मृत्युहासः इति श्रीमद्भागवते तृतीयस्कन्धे अष्टाविंशोऽध्यायः सम्पूर्णम् श्रीकृष्णार्पणमस्तु।